राम गीता जी का पाठ 18वां अध्याय श्लोक 21 से 30 तक। राम
वसुदेव सुसंदेव कंस जानुरमर्दनम देवकी परमानंदम कृष्णं वंदे जगद्गुरु पृथक्केन दुर्यज्ञानम् नानाभावान्तृतविधान् वेत्ति सर्वेषु भूतेषु सज्ञानम् वेद्धिराजसौ यत् सुखे स्ववदेकस्मिन् कार्ये सक्रमहेतुवम् अथ त्वार्थवदल्पञ्च तत्तामसमुदारितम् नियतम् सङ्गरहित नरावद्वेषतः कृतम् सफलपुरुषुनाकर्माय तत्सात्विकमुच्यते यत्तु कामेषु न कर्म साहङ्कारेण वा पुनः क्रियते बहुलाय सन्तराजसमुदारितम् अनुबान्धं क्षयं हिंसा मनवेक्षत पौरुषम् मोहादारभ्रते कर्म यत्तत्तामसमुच्यते मुक्तसङ्गो न हंवादे शिष्योत्साहसमन्वित सेध्यसेध्योर्निर्विकार तथा सात्विक उच्यते रागी कर्म फलप्रेष्टु लोभो हिंसात्मकोषुते हर्षशोकान्वितः पशा राजसः परिकीर्तितः अयुक्त प्राकृत स्तब्ध सचोलैस्तृतिकोलसः विषादिवीर्यसूची च कर्ता तामस उच्यते बुद्धिर्भेदं धृतेस्तैव पुनः सुविधं शृणु लोच्यमानमशेषेण पृथक्तेन धनञ्जय प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भजाभरे बन्धं मोक्षं च जावेत्ति बोधे सा पार्थसात्विकी प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भजाभरे बन्धं मोक्षं च जावेत्ति बोधे सा पार्थसात्विकी वसुदेव सुतं देवं कंसजानुरमर्दनम् देवकी परमानन्दम् कृष्णं वन्दे जगद्गुरुम्
हरे शरणम् 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 हरि शरणम हरि शरणम हरि शरणम हरि शरणम।